सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं कुर्मः। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धौतागिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। अस्तु, प्रवर्तमानः विषयः अङ्गकार्ये गुणः। गुणकार्यम् एकं प्रसिद्धम् अङ्गकार्यं। तिङन्तपदनिर्माण अवसरे त्रीणि सोपानानि सन्ति। प्रथमसोपाने विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं भवति, पश्चात् धातुविकरणयोः मेलनं भवति। द्वितीयं सोपानमस्ति तिङ्प्रत्ययसिद्धिः। तृतीयं सोपानं तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यम्, अङ्गतिङ्प्रत्ययोः मेलनम्। तत्र चिन्तनक्रमः अस्ति इति अवगतवन्तः। सार्वधातुकप्रक्रियायाम् अपि च आर्धधातुकप्रक्रियायां धातूनां विभजनेन प्रयोजनमस्ति। धातूनां विभजनं मातृभिः किमर्थं कृतम् इत्युक्ते प्रक्रियासौलभ्यार्थम्। इतोपि वक्तव्यं चेत्, पाणिनेः सूत्राणि अष्टाध्यायीग्रन्थे तादृशरीत्या स्थापितानि सन्ति। इत्युक्ते धातोः अन्तिमवर्णम् अनुसृत्य, अजन्तधातुः अस्ति चेत् धातोः अन्तिमवर्णम् अनुसृत्य सूत्राणि सन्ति। धातुः हलन्तः चेत् उपधायां कः वर्णः अस्ति इत्यस्य आधारेण सूत्राणि पाणिनिना रचितानि। पाणिनेः मनसि यत् चिन्तनमासीत् तदेव मातृभिः कृतमस्ति। इत्युक्ते तदेव चिन्तनं माताजी मनसि अपि अस्ति। माताजी प्रक्रियासौलभ्यार्थं धातूनां विभजनं कृतवती। सिद्धान्तकौमुद्यां सुबन्तानां प्रसङ्गे सुबन्तप्रकरणे अजन्तशब्दाः हलन्तशब्दाः एवं वर्गीकरणं दृश्यते। अजन्तशब्दानां हलन्तशब्दानां रूपसाधनसमये तत्र प्रक्रियासौलभ्यमस्ति खलु, तादृशरीत्या एव तिङन्तानां विषये अपि धातूनां विभजनमस्ति चेत् अस्माकं कृते सौलभ्यमस्ति इति मातुः चिन्तनमस्ति। अतः एव धातूनां विभजनं कृतवती। अजन्तधातवः हलन्तधातवः इति विभजनेन तत्र प्रक्रियासौलभ्यं वर्तते। एतादृशं विभजनं पूर्वम् अन्यैः न कदापि कृतम्, केवलं मातृभिः एव कृतमस्ति। गते वर्गे ईकारान्तानां प्रसङ्गे अङ्गकार्यं कथं भवति इति दृष्टवन्तः। ईकारान्तधातून् दृष्टवन्तः। उकारान्तधातवः केचन सन्ति। भुवादिगणीय उकारान्तधातूनां प्रसङ्गे अङ्गकार्यं कथं भवति इति अवगमनार्थम् अत्र केचन धातवः दत्ताः, तेषां प्रसङ्गे अद्य चिन्तनं कुर्मः। उकारान्तानां प्रसङ्गे चिन्तनं कुर्मः। करपत्रं पश्यन्तु। उकारान्तधातवः भुवादिगणे ईदृशाः पञ्चदशधातवः सन्ति इत्यस्मात् आरभ्य पठेम। ध्रु इति धातोः उदाहरणं दत्तमस्ति। सुन्दरमहोदय, भवान् पठतु।
उकारान्तधातवः भुवादौ ईदृशाः पञ्चदशधातवः सन्ति। ध्रुयोगे शप् रषक्वतदिते इति सूत्रेण शकारलोपः, हलन्त्यम् इत्यनेन पकारलोपः। ध्रुयोगे अ सार्वधातुकार्धधातुकयोः इत्यनेन सूत्रेण दिगन्तस्य गुणः। ध्रो योगे अ एचोयमायावः इत्यनेन सूत्रेण ओ स्थाने औ आदेशः। ध्रुव योगे अ ध्रव योगे अ द्रव इति अङ्गम्। तदेव
तावत् वदतु।
अत्र उकारान्तधातवः भ्वादिगणे ईदृशः पञ्चादशधातवः सन्ति, तद् सर्वे जानन्ति। अधुना ध्रुयोगे शप् इति स्थितौ शप् इति विकरणप्रत्ययः भवति। भ्वादिगणे शप् कर्तरि शप् इति सूत्रेण शप् इति विकरणप्रत्ययः आगतः। दशक्वतदिते इति सूत्रेण शकारस्य लोपः भवति, एवं हलन्त्यम् इति सूत्रेण पकारस्य अपि लोपः भवति, सारि इत्संज्ञा भूत्वा लोपः भवति। पकारस्य, शकारस्य, पकारस्य च इत्संज्ञा भूत्वा लोपः भवति। तदनन्तरं ध्रुयोगे अ इति स्थितिः भवति. तदनन्तरं सार्वधातु अत्र लोपः, अत्र सार्वधातुकप्रत्ययः. एतत् तिंशत् सार्वधातुकम् इति सूत्रेण सः शप् प्रत्ययः सार्वधातुकप्रत्ययः इति कारणात् सार्वधातुक अर्धधातुकयोः इति सूत्रेण इगन्तस्य अङ्गस्य गुणः भवति. अधुना ध्रु इति धातौ इगन्तम् अङ्गं भवति. उकारान्तम् अङ्गं तु इगन्त अङ्गम् एव इति कारणात् ध्रुयोगे अ इति स्थितौ ध्रु इति इगन्तस्य अङ्गस्य गुणः भूत्वा ध्रो इति भवति. तदनन्तरं ध्रोयोगे अ इति स्थितिः भवति. तदनन्तरं एचोयवायावः इति सन्धिसूत्रेण ओकारस्य स्थाने औ इति आदेशः भवति तदनन्तरं ध्रव्योगे अ इति स्थितिः भवति. ध्रव इति अङ्गं सिद्ध्यति.
धातुरूपी अङ्गमस्ति, ध्रु इति उकारान्तम् अङ्गमस्ति, अन्ते उकारः अस्ति, उकारः इक् प्रत्याहारे अस्ति, इगन्तम् अङ्गमस्ति, इगन्तं धातुरूपी अङ्गमस्ति. एकः अन्य धातुः अस्ति भुवादिगणे, ध्रु इति धातुः अस्ति, धकारोत्तरवर्ती ऋकारः अस्ति. धकारोत्तरवर्ती ऋकारः अस्ति चेत् तत्र लटीरूपं किं भवति?
ध्रु इति अङ्गं भवति चेत् तत्र ध्रुयोगे शप् इति स्थितौ ध्रु धरति इति रूपं ध्रुयोगे ऋकारान्तस्य अङ्गस्य ध इति भवति. तदनन्तरं ऋकारः आगच्छति, रेपः आगच्छति, तत्र धर् योगे अ इति स्थितिः भवति. धर इति अङ्गं सिद्ध्यति. तदनन्तरं धरति इति रूपम् अन्तिमं रूपं सिद्ध्यति.
उत्तमं. भुवादिगणे सः धातुः अपि अस्ति खलु?
भुवादिगणे
सः धातुः अपि अस्ति. धकारोत्तरवर्ती ऋकारः अस्ति तस्मिन् धातौ, तत्र रूपम् अस्ति धरति. सः धातुः अपि इगन्तधातुः, किन्तु अयं धातुः भिन्नः, सः धातुः भिन्नः. इतोपि अत्र अन्यानि उदाहरणानि दत्तानि, तानपि पठतु.
आम्, तथैव श्रुयोगे शप् इति इगन्तधातुः अस्ति. श्रुयोगे शप् इति धातुः अस्ति. तत्रापि कर्तरि शप् इति सूत्रेण शप् प्रत्ययस्य शकारपकारयोः इत्संज्ञा भूत्वा लोपः भवति. तदनन्तरं श्रुयोगे अ इति स्थितिः भवति. श्रु इति इगन्तम् अङ्गम् अस्ति इति कारणतः उकारः इक् प्रत्याहारे स्थितः अस्ति इति कारणतः श्रुयोगे अ इति स्थितौ. तत्रापि सार्वधातुक अर्धधातुकयोः इति इत्यनेन सूत्रेण इगन्तस्य अङ्गस्य गुणः भवति. श्रुयोगे अ इति स्थितौ गुणः भूत्वा श्रोयोगे अ इति स्थितिः भवति. तदनन्तरं एचोयवायावः इति सन्धिसूत्रेण श्रव्योगे अ इति स्थितिः भवति. श्रव इति अङ्गं सिद्ध्यति. स्रवति इति अन्तिमं रूपं सिद्ध्यति.
स्रवति इति रूपं धातुः इगन्तधातुः अस्ति. एकः अन्यधातुः अपि अस्ति, सकारोत्तरवर्ती ऋकारः अस्ति. स्रु इति रूपम् अस्ति, तस्य रूपं लटीरूपं सरति. वदतु.
सर् भवति गुणः भूत्वा तत्र श्रुयोगे अ इति स्थितिः भवति. तत्र गुणः भूत्वा सर् भवति. एवं सर्वयोगे अ सर इति अङ्गं सिद्ध्यति. सरयोगे ति सरति इति अन्तिमं रूपं सिद्ध्यति तत्र
स्रवति भिन्नं सरति भिन्नं खलु
स्रवति भिन्नं सरति भिन्नं भिन्नम्
द्वयोः अर्थः भिन्नः अस्ति ईदृशाः धातवः उकारान्तधातवः अन्यधातवः केचन सन्ति तेषां प्रसङ्गे संक्षेपेण वदतु
कु इति धातुः अस्ति तदपि भ्वादिगणे अस्ति कु प्रथमम् उकारः अस्ति इगन्तमङ्गम् अस्ति इति कारणेन कौ भवति प्रथमं कु को भवति गुणः भूत्वा सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भूत्वा को भवति तदनन्तरं सन्धिसूत्रेण एच वै वाय अहवः सन्धिसूत्रेण कव् भवति कव् योगे अ कव इति अङ्गं भवति घु घु इति धातुः तत्र तत्रापि इगन्तम् अङ्गं भवति उकारान्तधातुः अस्ति तत्र उकारान्तधातुः इगन्तधातुः अस्ति तत्र घु योगे शप् इति भवति शकारपकारयोः इत्संज्ञा भूत्वा लोपः भवति तदनन्तरं घु इति इगन्तम् अङ्गं भवति इति कारणतः तत्र घु योगे अ इति स्थितिः तत्र घु घु इति गुणः भूत्वा घो भवति घो योगे अ इति स्थितिः भवति एच ओ वायाहवः इति सन्धिसूत्रेण घव् योगे अ इति भवति घव इति अङ्गं सिद्ध्यति घवति अन्तिमं रूपं सिद्ध्यति
अत्रापि प्रक्रिया साम्यम् अस्ति एकस्य धातोः रूपाणि जानीमश्चेत् अपरेषां धातूनां तस्मिन् गणे तादृशानां धातूनां रूपाणि प्रयासं विना साधयितुं शक्नुमः अपरेषाम् उकारान्तधातूनां प्रसङ्गे अपि तादृशं चित्रमेव भवति प्रक्रिया साम्यं वर्तते डु अस्ति चेत् डव च्यु अस्ति चेत् च्यव प्रु अस्ति चेत् प्रव इति भवति अत्र तु च्यु इति धातुः आत्मनेपदी धातुः अतः च्यवते इति रूपं सिद्ध्यति प्रु धातुः अपि आत्मनेपदी धातुः अतः प्रवते इति रूपं सिद्ध्यति प्रक्रिया साम्यम् अस्ति तदर्थमेव माताजि धातूनां विभजनं कृतवती इति स्मर्तव्यः अंशः अस्तु महोदय सम्यक् रोहिणी भगिनी अग्रे करोतु
ओकारान्तधातवः बादौ ईदृशः त्रयः धातवः सन्ति भूयोग शप् भूयोग आ भोयोग आ भवयोग आ भव भूयोगः शप् शक किञ्चित् सर्वधातुकं सूत्रेण सर्वधातुक सर्वधातुक प्रत्ययमस्ति सार्वधातुकम् अस्ति अपि अस्ति तस्मात् गुणः भवति भूयोगः शप् भू इत्यस्य गुणः ओकारस्य गुणः ओ भवति भो भवति भोयोगः आ शप् इत्यस्य शकारम् इत् भवति पकारमपि इत् भवति शकारं रशकथित इति सूत्रेण पकारं हलञ्जन् इति सूत्रेण च भोयोग आ एव अवशिष्यते भोयोग अव अत्र एचो एव अयवः इति सूत्रं प्रवर्तते ओकारस्य अव आदेशः भवति भोयोग आ भव योग आ भवति भव इति अङ्गं भवति भवयोगस्य भवति इति अन्तिमं रूपं भवति
भव इति अङ्गं भवति तिङ्प्रत्ययस्य कृते खलु
आं भगिनि
भुवादिगणे ऊकारान्तधातवः त्रयः सन्ति इति उक्तमस्ति मू धातोः प्रसङ्गे वदतु
मूयोगः शप् मूयोगः शप् इत्यस्य एव अवशिष्यते मूयोगः आ तत्र ऊकारस्य गुणं भूत्वा भो भवति मो भवति मोयोग आ मो योग आ इति स्थिते एचवय आयव इति सूत्रं प्रवर्तते ओकारस्य अवादेशः भवति मो योग आ मव मव भवति मव योग आ मव इति अङ्गं भव तिप्रत्ययस्य कृते तिङ्प्रत्ययं योजयित्वा मवति इति रूपं भवति
अग्रे वदतु
पूयोग शप् पूयोग आ भवति तत्र ओकारस्य गुणः ओ भवति पो योग आ भवति यजोयवायव प्रवर्तते पो योग अव पव भवति पव योग आ पव इति अङ्गं तिङ् प्रत्ययस्य कृते पव योगति पवति इति अन्तिमन्द्योप
अत्र धातुः अस्ति पुङ् पुङ् इति धातुः अस्ति इत्युक्ते धातोः अन्ते कवर्गीय अन्तिम अनुनासिकव्यञ्जनमस्ति इति कारणतः अनुदात्तनित आत्मनेपदम् इति सूत्रेण अयं धातुः नित् धातुः अस्ति इति कारणतः आत्मनेपदी धातुः भवति अतः लट्टिरूपम् अस्ति पवते पू धातुः भुवादिगणे अस्ति एकः अन्यधातुः पू धातुः क्रयादिगणे अस्ति क्रयादिगणे अस्ति तस्य रूपमस्ति पुनाति सः धातुः बहु प्रसिद्धधातुः क्रयादिगणे पू धातोः रूपम् अस्ति पुनाति पुनाति इति रूपं तत्र सिद्ध्यति तत्र एकं विशिष्टं सूत्रम् आयाति पुवादीनां ह्रस्वः इति एकं सूत्रं प्रवर्तते तत्र धातुः तु पू दीर्घ ऊकारान्तधातुः एव किन्तु पुवादीनां ह्रस्वः इति सूत्रेण तत्र ह्रस्वरूपं सिद्ध्यति इति कारणतः पुनाति इति रूपं सिद्ध्यति क्रियादिगणे श्ना इति विकरणप्रत्ययः आयाति खलु अतः पुनाति इति रूपं सिद्ध्यति ऋकारान्तनं प्रसङ्गे भवती एव वदतु
ऋकारान्तदादः बादो ईदृशाः एकादशदादवः सन्ति ऋ इत्यस्य गुणः भवति व्यपरः इति सूत्रं विस्मृतवती
उरण्परः
व्यपरः इति सूत्रेण हृयोगशप् दशक्वदिति इत्यनेन शकारस्य लोपः हलन्त्यम् इत्यनेन पकारस्य अपि लोपः तस्य लोपः इति सूत्रेण लोपं भूत्वा अकार एव अवशिष्यते हृयोग आ ऋकारस्य गुणः भवति अर् अर् हृयोग अरि हृ हरि भवति हरियोग आ हर इति भवति हरति इति अन्तिमं रूपं सिद्ध्यति
अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रेण इगन्ताङ्गस्य गुणः अत्र हुरु इति धातुः इगन्तधातुः ऋकारः इक् प्रत्याहारे अस्ति ऋकारस्य गुणसंज्ञकवर्णः अकारः एव किन्तु तत्र उरण् रपरः इति सूत्रेण सः अण् वर्णः रपरः भवति इति कारणतः हुरु इत्यस्य रूपं हर् भवति हर् योगः अ हर हर इति अङ्गं भवति अत्र अन्यधातवः ऋकारान्ताः केचन सन्ति तेषां प्रसङ्गे वदतु
तदेव हव योग शप्
कथम् उच्चारणीयम् अत्र हकारोत्तरवर्ती अकारः नास्ति हकारः वकारः ऋकारः वदतु
हृभयोग आ ऋकारस्य गुणं भूत्वा अरि भवति ह्वरि भवति हरियोग आ हर ह्वर इति अङ्गं प्रत्ययस्य कृते ह्वरति इति लटि रूपं भवति
अग्रे
इत्यस्य ऋकारस्य गुणं भूत्वा गरि भवति गरियोग आ गर इति अङ्गं तिङ्प्रत्ययस्य कृते गरयोगति गरति इति रूपं भवति गृ गृ इत्यस्य अपि गृहयोगः शप् गृहयोग आ गृहयो शप् इति निमित्ते कृते गुणः भवति गृ घर् भवति घर्योग आ घर इति अङ्गं तिङ्प्रत्ययस्य कृते घरे घर योगति घरति इति लटिरूपम् दृदोः अपि दृयोग शप् दृयोग आ दृ गुणं भूत्वा धर् भवति धर्योग आ धर् धर धर भवति धरयोग तिति धरति इति लटिरूपम् सृ सृ इत्यस्य अपि ऋकारस्य अर् इति गुणं भवति स्वर् भवति स्वर्योग आ स्वर स्वरति इति लटिरूपं स्मृ स्मृयोग शप् स्मृयोग आ स्मृ शप् निमित्ते कृते स्मृ इत्यस्य गुणं भूत्वा स्मरि भवति स्मरियोग आ स्मर इति अङ्गं तिङ्प्रत्ययस्य कृते स्मरति इति लटिरूपं
बहु सम्यक् उपरि ध्रुव इति धातुः अस्ति, अत्रापि ध्रुव इति धातुः अस्ति, द्वयोर्मध्ये भेदः अस्ति, उपरि ध्रुव इति धातुः अस्ति, इत्युक्ते उकारान्तधातुः अस्ति, किन्तु अत्र धातुः ऋकारान्तधातुः, उकारान्तधातुः ध्रुधातुः भिन्नः, ऋकारान्तध्रुधातुः भिन्नः, तत्र रूपमस्ति ध्रवति, किन्तु अत्र रूपमस्ति धरति, खलु? घृतम् इति पदमस्ति खलु, आज्यम् इत्यस्मिन् अर्थे घृधातोः रूपमेव, घृधातुतः क्ता इति प्रत्ययस्य योजनेन घृत इति रूपं सिद्ध्यति, क्तान्तरूपम् अस्ति, धृधातुतः धृत, स्मृधातुतः स्मृत, हृधातुतः हृत इति रूपमस्ति, आर्धधातुकप्रक्रियायाम् अपि तत्र सौलभ्यम् अस्ति, आर्धधातुककृदन्तानां रूपसाधनवेलायाम् अपि एवं रीत्या धातूनां विभजनं कृतं चेत् प्रक्रिया सौलभ्यं वर्तते, ध्रुधातोः रूपं धृतं, स्मृधातोः रूपं स्मृतं, हृधातोः रूपं हृतं, घृ अस्ति चेत् घृतम्, एवं रूपाणि भवन्ति। अग्रे सरेम, नरेश महोदय भवान् करोतु अग्रे।
अग्रे रेकारान्त धातवः अत्र दीर्घ रेकारः अस्ति, द्वादौ ईदृशः एकः धातुः अस्ति, केवलम् एकधातुः अस्ति, त्रियोगशप् शकारस्य पकारस्य यत् संज्ञा भवति लोपः भवति, त्रियोग अ अस्ति अत्र, त्रि तत्र गुणकार्यं भवति तर् भवति, तर् योग अ तर भवति, अग्रे तत्तरति भवति, तिङन्त योजनेन तरति भवति।
उत्तमं, रूकारान्त एकः एव धातुः अस्ति इति उक्तमस्ति, अस्तु, त्रुधातोः रूपमेव खलु तरणम् इति रूपं, ल्युडन्तरूपमस्ति, जानाति खलु,
तरणम् अस्ति,
नूल् प्रत्यान्तरूपमस्ति तारकः, तारकः इति त्रुधातोः रूपमेव, तारकः इति णूल् प्रत्ययान्तरूपम् अस्ति, तरणीयम् इति अनियर् प्रत्ययान्तरूपं, तरितव्यम् इति तव्यत् प्रत्ययान्तरूपम् अस्ति। भवान् जानाति वा उत्तीर्णः इति कीदृशं पदम्?
उत्तीर्णः किमस्ति न जानामि,
श्रुतवान् खलु,
उत्तीर्णः पास् भवति,
सुन्दरमहोदय वदतु,
उत् इति उपसर्गपूर्वक पूर्वक त्रिधातुतः तीर्णं ल्युट् प्रत्ययस्य योजनेन,
ल्युट् अस्ति चेत् तरणं,
करेक्ट् करेक्ट्, त प्रत्ययस्य योजनेन उत्तीर्णः, त प्रत्ययस्य योजनेन उत्तीर्णः इति रूपं सिद्ध्यति।
उत्तमं, त्रुधातोः रूपमेव तीर्ण कथं सिद्ध्यति, तदर्थम् एकं विशिष्टं सूत्रमेव अपेक्षितमस्ति, उत् उपसर्गपूर्वक त्रुधातुतः क्ता इति प्रत्ययस्य योजनेन उत्तीर्ण इति पदं सिद्ध्यति, क्तान्तरूपं, तत्रूपं क्तान्तरूपम् अस्ति, त्रुधातोः क्त्वान्तरूपं वक्तुमिच्छति वा, क्त्वान्तरूपम्, तत्रापि किञ्चित् वैशिष्ट्यम् अस्ति, तदर्थं वदन्ती अस्मि, तीर्त्वा इति रूपं सिद्ध्यति, क्त्वान्तरूपं तीर्त्वा इति भवति,
उत् पूर्वक उत्तीर्य इति ल्यबन्तरूपमपि अस्ति किल,
उत्तीर्य इति भवति, तीर्त्वा इत्यत्रापि वैशिष्ट्यमस्ति, उत्तीर्णः इत्यत्रापि वैशिष्ट्यमस्ति, तदर्थं विशेषं सूत्रमस्ति। नरेश महोदय भवान् पठतु अग्रे इतोपि।
एजन्ताः धातवः द्वादौ ईदृशः एकत्रिंशत् धातवः सन्ति, एच् इति प्रत्याहारः ए ओ ऐ औ येषां धातूनाम् अन्तिमः वर्णः ए ओ ऐ औ च, ते एजन्ताः धातवः, अतः सार्वधातुक आर्धधातुकयोः इत्यस्य प्रसक्तिः नास्ति किल, यतः धात्वन्ते इ उ रि व नास्ति, केवलं सन्धिकार्यं भवति, अत्र
एचो अयवाय अवः इति कारणतः एचः स्थाने ऐ अव् आय् आव् एते आदेशः भवन्ति अत्र दत्तमस्ति एच् धातवः अन्ते एच् अस्ति एच् मध्ये ए ओ ऐ औ अस्ति तानि धातवः एजन्ताः सन्ति अत्र सार्वधातुक अर्धधातुकयोः सूत्रं तु तस्य प्रसक्तिः नास्ति यतः अन्ते इक् नास्ति इ उ रि ऋ नास्ति केवलम् अत्र सन्धिकार्यं भवति एच वायवायवः अतः ए स्थाने ऐ भवति ओ स्थाने अब् भवति ऐ स्थाने अव् भवति आय् भवति अपि च औ स्थाने आव् भवति अग्रे किञ्चित् उदाहरणानि सन्ति दे योगशप् गुणकार्यं नास्ति लशक्वतद्यते इत्यनेन शकारः लोपः हलन्त्यम् इत्यनेन पकारः लोपः अतः दे योग अभवति दे योग अ तत्र सन्धिकार्यं भवति एचोयवायवः दे दै भवति दै योग अ दय तत् तिङन्त तस्य अङ्गं दय भवति
धातुः इगन्तः नास्ति इगन्तः नास्ति इति कारणतः शप् विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यं नास्ति सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिरेव नास्ति एच् प्रत्याहारे अस्ति अत्र इगन्तधातुः नास्ति अग्रिमधातूनां प्रसङ्गे वदतु
अग्रे मे धातुः अस्ति मे धातु तत्र मे योग शप् भवति मे तत्रापि एचवायवः मे मै भवति अपि च शप् तस्य यत्संज्ञा भवति चेत् मै योग अ मय भवति दे धातुः अपि एजन्तधातु दे दै भवति दै योग अ दय भवति धे तत्र धे धै भवति धै योग अ धय भवति अपि च वे वै भवति वै योग अ वय भवति
धे धातोः रूपमेव धेनुः धयति सुतान् इति धेनुः धे धातोः रूपमेव धेनुः लटिरूपमस्ति धयति एते सर्वे धातवः एजन्ताः अर्धधातुकप्रक्रियायाम् एते सर्वे एजन्तधातवः आकारान्ताः भवन्ति आदेश उपदेशेशिति इति सूत्रेण इत्युक्ते अर्धधातुकप्रक्रियायां सर्वे एजन्तधातवः आकारान्ताः भवन्ति आदेच उपदेशे शिति इति सूत्रेण तदर्थमेव धे धातोः ल्युडन्तरूपं धानं भवति धा धातोः ल्युडन्तरूपं धानमेव किन्तु धे धातोः ल्युडन्तरूपमपि धानमेव तत्र रूपसाम्यं वर्तते किमर्थं चेत् एते सर्वे एजन्तधातवः अर्धधातुकप्रक्रियायाम् आकारान्तधातवः भवन्ति दे धातोः ल्युडन्तरूपमपि दानं भवति अत्र सार्वधातुकप्रक्रियायाः प्रसङ्गे लिखितम् अस्ति अत्र लटिरूपसिद्धिः इति विषयः अस्ति किन्तु अर्धधातुकप्रक्रियायाम् एते सर्वे एजन्तधातवः आकारान्तः भवन्ति इति स्मर्तव्यः अंशः अस्ति वयति वयति इति पदं परिचितं खलु इतोपि भवानेव वदतु अग्रे
धातुः अस्ति दै अन्ते ऐ अस्ति अतः दै योग शप् तत्र दै योग अ ऐकारस्थाने आय् भवति अतः दाय् योग अ दाय भवति अग्रे गै धातुः अस्ति गै तत्र एच अवयवः गाय् भवति गाय् योग अ गाय भवति
गायति इति रूपं खलु
आम् गायति भवति
किन्तु ल्युडन्तं किमस्ति
गायनम्
गानम् गानम् इति आर्धधातुककृदन्तरूपम् अस्ति आर्धधातुककृदन्तरूपम् अस्ति ल्युडन्तरूपम् ल्युट् प्रत्ययः अर्धधातुककृत् प्रत्ययः गै धातुः एजन्तधातुः एजन्तधातुः आकारान्तः भवति आदे च उपदेशे शिति इति सूत्रेण अतः गै इत्यस्य रूपं गा भवति गायोगः अन गान इति रूपं सिद्ध्यते तत्र गानम् इति ल्युडन्तरूपम् अस्ति अग्रे
प्यै प्यै तत्र अवयवः प्याय् भवति प्याय् भवति प्याय् योग अ तु प्यायते प्यायति परन्तु अत्र पाय् भवति ओ अस्तु अस्तु प्यै तत् पाय् भवति पाय् योग अ पाय भवति
अत्र पकारोत्तरवर्ती यकारः अपि अस्ति खलु प्याय
प्याय प्याय भवति अतः अत्र पाय किमर्थम् अस्ति पाय
करपत्रे एवं लिखितमस्ति वा अत्र पकारोत्तरवर्ती यकारः अपि अस्ति
अत्र तु पाय लिखितम् अस्ति पाय
अत्रापि यकारः अस्ति करपत्रे यकारः अस्ति प्याय एव लिखितमस्ति
मम करपत्रे तु पाय अस्ति प्याय नास्ति
अस्तु ऐकारान्तधातुः पकारोत्तरवर्ती यकारः अपि अस्ति प्यै इति धातोः रूपम् अस्ति केवलम् ऐकारस्य स्थाने एव आय् आदेशः भवति इत्यतः प्याय् इति रूपं सिद्ध्यति धातुः भवादिगणे अस्ति इति कारणतः कर्तरिषप् सूत्रेण शपायाति इत्यतः शप् इत्यस्मात् अकारः आगतः तेन प्याय् योगः अ प्याय इति रूपं भवति आत्मनेपदी धातुः इति मन्ये प्यायते इति रूपं सिद्ध्यति अग्रे
अग्रे श्यै तत्तु सम्यक् अस्ति श्यै अवयवः श्याय् भवति श्याय् योग अ श्याय भवति तत् सम्यक् अस्ति अग्रे त्रै त्रै अस्ति त्रै त्राय् भवति त्राय् योग अ त्राय भवति
अयं धातुः परिचितधातुः त्रै धातोः रूपमेव त्राणं पादत्राणं त्राणम् इति ल्युडन्तरूपम् अस्ति त्राणम् इत्यत्र अणत्वमपि भवति तत्र रेफः अस्ति इति कारणतः अणत्वं भवति ल्युडन्तप्रसङ्गे वदन्ती अस्मि ल्युडन्तरूपम् अस्ति त्राणम् ऐकारान्तधातुः एजन्तधातुः अतः आकारान्तः भवति ल्युडन्तरूपं त्राणम् अस्ति लटीरूपम् अस्ति त्रायते आत्मनेपदिरूपं त्रायते अग्रे
जय् जय् जाय् भवति जाय् योग अ जाय भवति शै शै शाय् भवति शाय् योग अ शाय भवति
इत्युक्ते अत्र रूपसाम्यम् अस्ति एजन्तानां प्रसङ्गे सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिर्नास्ति वदतु
जाय् इति धातुः जायते इति रूपं सिद्ध्यति वा परिचितं धातुः वा अथवा किमर्थं किमपि अन्यधातुः वा
अन्यधातुः महोदय जनि प्रादुर्भावे सः धातुः भिन्नः
जनि प्रादुर्भावे तदेव 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 मम सन्देहः अस्ति एतत् परिचितधातुः नास्ति किल
जनि प्रादुर्भावे सः धातुः लौकिकधातुः जन् अस्ति
जन् प्रथमं परिवर्तनं भूत्वा जा भवति वा
ज्ञाजनौर्जा इति सूत्रमस्ति जायते इति रूपं तत्र सिद्ध्यति जनी प्रादुर्भावे इत्यस्मिन् प्रसङ्गे ज्ञाजनोर्जा इति विशेषसूत्रेण जा आदेशः भवति, धात्वादेशः भवति, इत्यतः जायते इति रूपं सिद्ध्यति। जै इति धातोः प्रसङ्गे अत्र धात्वादेशः किमपि नास्ति, गुणकार्यं किमपि नास्ति, केवलं सन्धिकार्यम् एचोयवायावः इति सूत्रेण सन्धिकार्यं भवति। इदं धातुद्वयं भिन्नम् अस्ति। जै धातुः कस्मिन् अर्थे अस्ति? क्षये इत्यस्मिन् अर्थे अस्ति भुवादिगणे। जै क्षये परस्मैपदरूपम् इति मन्ये, जायति इति रूपं सिद्ध्यति। किन्तु जनि प्रादुर्भावे सः धातुः जायते इति आत्मनेपदरूपं तत्र सिद्ध्यति। किन्तु अत्र यः धातुः अस्ति सः परस्मैपदी धातुः एव, अत्र केवलं सन्धिकार्यमेव भवति लटीरूपसाधनवेलायाम्। अग्रे सरेम, नरसिंहहेड्डेमहोदय भवान् पठतु अग्रे।
अग्रे हलन्तदातवः बौधौ ईदृशाः अशीत्यधिक अष्टशतं धातवः सन्ति। अत्र युगपदधातूनाम् उपधायाम् इक् स्वरस्य गुणः इक् प्रत्याहारः नाम इ उ ऋ। युगपदः धातु नाम यस्य धातोः उपधायाम् इक् स्वरः अस्ति सः। स्वरात् तकारस्य योजनेन केवलं ह्रस्वस्वरः निर्दिष्टः, अतः इत् नाम ह्रस्वैकारः, उत् नाम ह्रस्वोकारः, ऋत् नाम ह्रस्वोकारः। इदुपदधातु नाम यस्य धातोः उपधायां ह्रस्वैकारः अस्ति सः। उदुपदधातु नाम यस्य धातोः उपधायां ह्रस्वोकारः अस्ति सः। ऋदुपदधातु नाम यस्य धातोः उपधायां ह्रस्वऋकारः अस्ति सः। अत्र तत्र हलन्तदातोस्य हलन्तदातूनां कृते दत्तमस्ति। अत्र तादृशधातु अशीत्युत्तर अष्टशतं सन्ति। अत्र इगुपदधातूनाम् उपधायाम् इक् स्वरस्य गुणः, यदि उपधायाम् इक् वर्णाः सन्ति चेत्, इक् इत्युक्ते इक् प्रत्यारस्थवर्णः इ ऊ ऋ, तत्र पुगन्तलघुपदस्य इत्यनेन गुणः भवति। परे सारधातुकप्रत्ययः अस्ति चेत् स्वरात् तकारस्य अत्र तकारस्य योजनं कृतमस्ति, तपरकरणं कृतमस्ति। इत्युक्ते इत् इत्युक्ते ह्रस्व इकारः, उत् इत्युक्ते ह्रस्वकारः, ऋत् इत्युक्ते ह्रस्व ऋकारः। तादृशमस्ति चेदेव गुणः भवति, यदि दीर्घः अस्ति चेत् गुणः न भवति। इदुपदधातु नाम यस्य धातोः उपधायां ह्रस्व इकारः अस्ति। उदुपद इत्युक्ते यस्य धातोः उपधायां ह्रस्व उकारः अस्ति। ऋदुपद अस्ति चेत् तत्र ऋदुपद इत्युक्ते यस्य धातोः उपधायां ह्रस्व ऋकारः अस्ति।
अदुपधः, इदुपधः, उदुपधः, ऋदुपधः, इमानि पदानि धातोः विशेषणानि भवन्ति। कीदृशधातुः अदुपद्धधातुः, इदुपद्धधातुः, उदुपद्धधातुः, ऋदुपद्धधातुः? अदुपधः इति कथनेन अत् उपधा यस्य सः, इदुपधः इति कथनेन इत् उपधा यस्य सः, उदुपधः उत् उपधा यस्य सः, ऋदुपधः ऋत् उपधा यस्य सः इति विग्रहवाक्यं वक्तव्यं भवति। एतेषु पदेषु बहुव्रीहिसमासः अस्ति। अत् इति कथनेन तपरकरणं कृतमस्ति, तपरस्तत्कालस्य इति सूत्रेण तपरकरणं कृतमस्ति। अत् इति कथनेन तत्र ह्रस्व अकारस्य एव ग्रहणं भवति, केवलं षण्णां ह्रस्व अकाराणां ग्रहणं भवति अत् इति कथनेन। उपधा इति पदं स्त्रीलिङ्गपदमेव, अदुपधः इति समस्तपदमस्ति, बहुव्रीहिसमासयुक्तं पदम् अस्ति। उपधा इति स्त्रीलिङ्गपदं चेदपि अदुपधः, इदुपधः, उदुपधः, ऋदुपधः इमानि पदानि धातोः विशेषणानि भवन्ति इत्यतः तत्पदं पुंलिङ्गपदमेव। बहुव्रीहिसमासस्य प्रसङ्गे लिङ्गपरिवर्तनं भवति, एवं रीत्या लिङ्गपरिवर्तनं भवति। अत् उपधा यस्य सः, अदुपधः, अत् योगः उपधा, अनयोः पदयोः सम्मेलनेन तत्र समस्तपदनिर्माणं भवति। उपधा इति स्त्रीलिङ्गपदं चेदपि तत्र लिङ्गपरिवर्तनं भूत्वा बहुव्रीहिसमासयुक्तं पदं सिद्ध्यति।
धातुः पुल्लिङ्गम् इति कारणतः तदेव लिङ्गं पुल्लिङ्गं भवति किल, धातुः पुल्लिङ्गं पदम् अस्ति इति कारणतः।
अत्र मम आशयः कः इत्युक्ते, उपधा इति उत्तरपदं स्त्रीलिङ्गपदं चेदपि तस्य ह्रस्वत्वं भवति, धातोः विशेषणमस्ति इति कारणतः अदुपधः इति पुंलिङ्गपदमेव भवति। इगुपधः इत्यत्र सन्धिकार्यमस्ति, वदतु।
इक् उपधः, इगुपद, इक् उपधः, इदुपधः, तत्र यस्य सन्धि भवति।
जस्त्व सन्धिकार्यमस्ति समस्तपदेषु सन्धिकार्यं नित्यरूपेण भवति इक् योगः उपधा इक् योगः उपधा इत्यत्र जस्त्वसन्धिकार्यं भवति इगुपधः इति रूपं सिद्ध्यति अग्रे वदतु
हलन्तेभ्यः धातुभ्यः उपन्तलघुपदस्य च इत्यस्य प्रसक्तिः यतोहि इदं सूत्रं कार्यं करोति उपधायाम् अपि च एषु धातुषु उपधायां बहुत्र ह्रस्व इक् स्वराः सन्ति अत्र अवधेयं यत् सूत्रानुसारं केवलं लघु इकः गुणः भवति न तु दीर्घ इकः सूत्रार्थे तदा गुणः भवति यदा सार्वधातुकप्रत्ययः अर्धधातुकप्रत्ययः वा परे अस्ति शप् तु सार्वधातुकप्रत्ययः अतः सूत्रस्य प्रसक्तिः कथमिदं कार्यं दृश्यते इति अधः पश्यामः यत्र उपधायां लघु इक्वर्णाः सन्ति तत्र पुगन्तलघुपदस्य च इत्यस्य सूत्रस्य प्रसक्तिः भवति यतोहि इदं सूत्रं कार्यं करोति उपधायां यदि उपधायाम् इक्वर्णः अस्ति चेदेव एतत् सूत्रं कार्यं करोति अपि च एतत् धातुषु उपधायां बहुत्र इक्कु स्वराः सन्ति धातुषु येषु धातुषु इत्युक्ते हलन्तधातुषु
बहुत्र इति लिखितं खलु इत्युक्ते भुवादिगणे बहवः एतादृशधातवः इत्युक्ते येषु धातुषु उपधायां ह्रस्व इक्वर्णः अस्ति तादृशधातवः बहवः भुवादिगणे सन्ति वदतु
अत्र अवधेयं यत् सूत्रानुसारं केवलं लघु इकः गुणः भवति न तु दीर्घ इकः उगन्तलघुपदस्य इति सूत्रेण यत् गुणः भवति तत् लघु इक्वर्णस्य भवति न तु दीर्घ इक्वर्ण यदि दीर्घ स्वरः अस्ति चेत् इक् स्वरः अस्ति चेत् तत्र गुणः न भवति गुणस्य प्रसक्तिः न भवति
अत्र उदाहरणार्थं जीव् इति धातुः अस्ति जीव् धातोः रूपं किम् अस्ति लटिरूपं
जीवति एव
तत्र किमर्थं गुणः न भवति
इकारः अस्ति अतः तत्र गुणस्य प्रसक्तिः नास्ति केवलं रत्स्व इकारः अस्ति चेदेव गुणः भवति
अग्रे
सूत्रार्थे तदा गुणः भवति यदा सार्वधातुकप्रत्ययः अर्धधातुकप्रत्ययः वा परे अस्ति एतत् पुगन्तलघुपदस्य च इति कृते निमित्तम् अस्ति परे सार्वधातुको वा अर्धधातुको वा प्रत्ययः भवेत् अत्र वादिगणे विकरणप्रत्ययः शप् अस्ति अतः एतत् सार्वधातुकप्रत्ययः अस्ति तिंशित् सार्वधातुकम् इत्यनेन तत्र पकार अपि अस्ति अतः गुणस्य प्रसक्ति कोऽपि बाधा नास्ति अतः तत्र वादिगणे गुणस्य प्रसक्तिः भूत्वा गुणः भवति यत्र उपधायम् इक्वर्णः अस्ति कथमिदं कार्यं दृश्यते इति अग्रे पश्यामः इति अस्ति
अग्रे
इदुपदधातवः वादौ ईदृशाः चत्वारिंशत् धातवः सन्ति टिक् योगशप् लशक्तदित्यनेन चकारलोपः अलन्त्यम् इत्यनेन पकारलोपः टिक् योग उगन्तलोपदश्च इत्यनेन उपधायाम् इक् स्वरस्य गुणः टेक् योगः टेक इति अङ्गं तथैव इट् योगशप् एट पिट् योग पिट् पेट चित् चेत निश् नेश इत्यादीनि अङ्गानि निष्पन्नानि अत्र एतत् प्रक्रिया कथं भवति इति दत्तमस्ति टिक् इति धातु नीत्वा टिक् इत्यत्र उपधायां लघु इक्वर्णः अस्ति तस्य परे शप् अस्ति चेत् तत्र शप् मध्ये किं भवति लश्यतदिति इत्यनेन शकारलोपः भवति हलन्त्यम् इत्यनेन पकारलोपः भवति अतः अ एव अवशिष्यते इदानीं टिक् योगः अत्र शप् इति सार्वधातुक पित् प्रत्ययः अस्ति कृत्वा गुणः भवति पुगन्तलोपस्य च इति सूत्रेण अतः टिक् इत्यत्र यः स्तिकारः अस्ति तस्य गुणः भूत्वा टेक् भवति टेक् योगः टेक इति अङ्गं सिद्धं भवति तादृशमेव तत्र इट् अस्ति चेत् एट भवति पिट् अस्ति चेत् पेट भवति चित् अस्ति चेत् चेत भवति निश्यति चेत् नेश भवति इत्यादीनि अङ्गानि निष्पन्नानि
बहु सम्यक्
एतत् चतुरधिकषष्टि दातवः किल
चत्वारिंशत्
नास्ति
चत्वारिंशत्
परन्तु अत्र तु चतुरधिकषष्टि दातवः किल 64
इदुपधानां प्रसङ्गे वदन् अस्ति तत्र चत्वारिंशत् धातवः सन्ति साधु
एव वा ओके
इदुपधानां प्रसङ्गे वदन् अस्ति यत्र यत्र धातौ उपधायां ह्रस्व इक् वर्णः अस्ति ह्रस्व इकारः अस्ति तत्र तत्र ईदृशानि समानानि कार्याणि भवन्ति महोदय अग्रे पठतु
उदुपदाः वादौ ईदृशाः चतुष्षष्टिधातव सन्ति शुच्योग शक्तुदितेन शकारलोपः लन्त्यम् इत्यनेन पकारलोपः शुच्योग उगन्तल उपदस्य च इत्यनेन उपादायाम् इक्स्वरस्य गुणः शोच्योग शोच इत्यनेन तथैव कुज्योग शप् कोज लुट् लोट मुद् मोद शुभ् शोभ इत्यादीनि अङ्गानि निष्पन्नानि अत्र उदुपदाः कृते उदाहरणानि सन्ति तत्र यत्र उपादायं ऋस्व उकारः अस्ति यथा शुच् शुच् इत्यत्र ऋस्व उकारः अस्ति उपादाय शुच्योग शप् शप् मध्ये लशक्तदिते इत्यनेन शकारलोपः भवति हलन्त्यम् इत्यनेन पकारलोपः भवति एव अवशिष्यते शुच्योग इदानीं पुगन्तलगुपदस्य च इत्यस्य प्रसक्तिः भवति उपादायमिति ह्रस्व उकारः अस्ति इको इक्स्वरः तस्य गुणः भवति गुणः भूत्वा शोच् भवति शोचयोगः शोच इति अङ्गं निष्पन्नं तथैव कुज् योग शप् कुज भवति लुट् योग लुट् योग शप् लोट भवति मुद् योग शप् मोद भवति शुभ् योग शप् शोभ भवति इत्यादि अङ्गानि निष्पन्नानि भवन्ति
निष्पन्नानि इत्यत्र क्तान्तरूपम् अस्ति पद् इति धातोः रूपम् एव पन्न तदर्थमपि सूत्रमस्ति पद् धातोः रूपमेव पन्न अङ्गानि निष्पन्नानि अनयोर्मध्ये विशेषणविशेष्यभावः अस्ति अत्र सुच् धातुः शोके इत्यस्मिन् अर्थे अस्ति उदुपद्धधातुः अतः पुगन्तलघुपदस्य चैत्यनेन उपधायां स्थितस्य लघु उकारस्य गुणः भूत्वा शोच् भवति साधु महोदय अग्रे सरेम नीलं भगिनी भवती करोतु अग्रे
ऋदुपदाः भुवादौ ईदृशाः द्वाविंशः धातवः सन्ति ऋकारः इत्यस्य गुणः अर् भवति
कति धातवः सन्ति
द्वाविंशः
विंशतिः विंशतिः खलु विंशतिः त्रिंशत् चत्वारिंशत् एवं वक्तव्यं खलु विंशतिः धातवः सन्ति वदतु
वयं जानीमः तत् ऋकारस्य अकारः इति गुणः भवति अनन्तरं तत्र उरनरपरः इत्यनेन तत्र अकारस्य प्रतिरेपः अपि आयाति अतः ऋकारस्य स्थाने तत्र अर् आदेशः भवति सो गृज् धातु योगशप् कुर्मः चेत् तत्र शकारपकारस्य इत्संज्ञा भूत्वा लशकृतदिते अपि च हलन्त्यम् इत्यनेन शकारस्य पकारस्य इत्संज्ञा भवति अनन्तरं तस्य लोपः इत्यनेन तयोः लोपः भवति अकारः अवशिष्यते सो गृज् योग कुर्मः चेत् अत्र उपधायां ह्रस्व इक् वर्णः अस्ति ऋकारः अतः पुगन्तलघुपदस्य च इत्यनेन उपधायाम् इक् स्वरस्य गुणः भवति सो तत्र ऋकारस्य स्थाने अर् भूत्वा गर्ज इति भवति अनन्तरं शप् इत्यस्य अकारः गर्ज इति अङ्गं भवति सो अङ्गनिर्माणं यः धातुरूपी अङ्गे यः विकरणप्रत्ययस्य कारणेन भुवादौ गुणः भवति तत्र अङ्गस्य निर्माणं भवति अतः गर्ज इति अङ्गं भवति तथैव कृष् कर्ष भवति हृष् हर्ष भवति सृप् सर्प भवति अकारः अपि अस्ति अन्ते मृष् मर्ष प्रक्रिया तु समानमेव तत्र प्रथमे शकारपकारस्य लोपः अनन्तरं तत्र उगन्तलघुपदस्य च इति सूत्रेण एव गुणकार्यं भवति अतः तत्र अर् भूत्वा अकारस्य योजनेन तत्र हर्ष सर्प मृष इत्यादीनि अङ्गानि तत्र निष्पन्नानि
बहु सम्यक् गर्ज कर्ष हर्ष सर्प मर्ष इमानि अङ्गानि अदन्तानि इत्युक्ते भुवादिगणे अदन्तमङ्गं सिद्ध्यति किमर्थम्
शप्रत्ययस्य अकारः अन्ते तत्र योजनीयं सर्वेषां धातूनां सः अदन्तमङ्गम् एव निष्पद्यते
येषु येषु गणेषु अदन्तमङ्गं सिद्ध्यति तेषु गणेषु सिद्धप्रत्ययाः भिन्नाः येषु गणेषु अनदन्तमङ्गं सिद्ध्यति तेषु गणेषु सिद्धतिङ्प्रत्ययाः भिन्नाः सन्ति भुवादिगणे अदन्तमङ्गं सिद्ध्यति अन्येषु केषु गणेषु अदन्तमङ्गं सिद्ध्यति
दिवादिगणे चतुर्थगणे अपि अदन्ताङ्गं तत्र या इति भागः अस्ति यकारः अकारः अतः तत्र अङ्गम् अन्ते अकारः अस्ति तथैव तत्र तुदादिगणे षष्ठं गणे तत्रापि श इति प्रत्ययः अस्ति तत्र शकारस्य संज्ञा भूत्वा अकारः अस्ति अतः तत्रापि अदन्ताङ्गमस्ति अपि च चुरादौ अपि शप् प्रत्ययस्य कारणेन तत्र अय इति भागः अस्ति सो तत्रापि अन्ते अकारः सो चतुर्षु गणेषु तत्र अदन्ताङ्गं निष्पद्यते
बहु सम्यक् भुवादिगणे दिवादिगणे तुदादिगणे चुरादिगणे एतेषु चतुर्षु गणेषु अदन्तमङ्गं सिद्ध्यति इत्यतः अदन्त अङ्गं येषु गणेषु सिद्ध्यति तेषु गणेषु सिद्धप्रत्ययाः समानाः सिद्धतिङ्प्रत्ययाः समानाः भवन्ति अपरेषु गणेषु अनदन्तम् अङ्गं सिद्ध्यति अतः अपरेषु गणेषु सिद्धतिङ्प्रत्ययाः भिन्नाः सन्ति अग्रे पठतु
इदानीं तत्र भुवादौ अदुपदाः अपि सन्ति भुवादौ ईदृशाः षट्त्रिंशत् अधिक द्विशतानि धातवः सन्ति अत्र ह्रस्व अकारः उपधायाम् अस्ति अदुपदाः इत्युक्ते तत्र ह्रस्व अकारः उपधायां येषां ते अदुपदाः ह्रस्व अकारः उपधायाम् अस्ति अकारस्य गुणः विकृति न भवति एव अतः किमपि अङ्गकार्यं नास्ति इत्युक्ते तत्र उपधायं केवलं शप् निमित्तीकृत्य तत्र केवलम् इकवर्णानाम् एव गुणः भवति सो अकारः अत्र शप् इति विकरणप्रत्ययः अस्ति सो अदुपदानां तु तत्र गुणः न भवति भुवादौ अतः तत्र किमपि अङ्गकार्यं नास्ति प्रथमगणे सो लज् योग शप् कुर्मः चेत् तत्र शकारपकारस्य संज्ञा भूत्वा तत्र लोपः भवति अकारः तत्र केवलं वर्णमेलनम् एव कोऽपि अङ्गकार्यं नास्ति भुवादौ अतः लज् इति अङ्गं भवति तथैव अक् अक् इति धातु अस्ति शप् प्रत्ययस्य योजनेन तत्र अक् भवति नट् नट भवति यत् यत् भवति वद् वध भवति सो इत्यादीनि अङ्गानि सो तत्र अदुपदाः बहूनि धातवः सन्ति तेषां कोऽपि अङ्गकार्यं नास्ति केवलं वर्णमेलनम् अस्ति किमर्थं चेत् उपधाय केवलं ह्रस्व इकवर्णानाम् एव गुणः
पठ् धातुः अपि एवमेव खलु
आम् सत्यं पठ अपि अस्ति
भवादिगणे कति अदुपधाः धातवः सन्ति संख्यां वदतु सुन्दरमहोदय भवान् वदतु कथं वक्तव्यं भुवादिगणे अदुपधाः धातवः कति सन्ति
भुवादिगणे अदुपदाः धातवः षट्त्रिंशत् अधिक द्विशतं धातवः सन्ति
साधु महोदय षट्त्रिंशत्युत्तरद्विशतं षट्त्रिंशत्युत्तरद्विशतम् अथवा षट्त्रिंशत् षट्त्रिंशत्यधिकषट्त्रिंशत्युत्तर द्वयमपि साधु नीलं भगिनी अग्रे करोतु
शेषाः भुवादौ ईदृशाः षोडश अधिक पञ्चशतानि धातवः
पञ्चशतं नपुंसकलिङ्गरूपमेव सिद्ध्यति शतम् इति एव वक्तव्यम्
ऐ गोट् कन्फ्यूस्ड् यथा धातवः इति अस्ति तस्य कृते
एकवचने एव वक्तव्यं शतं नपुंसकलिङ्गे भवति एकवचने एव भवति षोडशाधिकपञ्चशतं धातवः
अत्र उपधाय स्वरः नास्ति अतः किमपि अङ्गकार्यं नास्ति इत्युक्ते तत्र प्रथमे तु अदुपदाः तत्र वयं दृष्टाः तत्र तेषामपि कोऽपि गुणकार्यं नास्ति अपि च तत्र शेषः उपधायं यत्र अच् वर्णाः एच् वर्णाः सन्ति अपि च उपधायां कोऽपि व्यञ्जनः अस्ति चेत् तादृशधातवः तत्रापि षोडश अधिकपञ्चशतं धातवः सन्ति तेषु अपि कोऽपि गुणकार्यं न भवति इत्युक्ते इकवर्णः उपधायां नास्ति अतः गुणकार्यं न भवति सो तत्र सेक् इति एकं धातुः अस्ति सेक् तत्र उपधायाम् एकारः अतः गुणः न भवितुं शक्नोति तत्र केवलं तत्र सेक् योग शप् कुर्मः चेत् तत्र किं भवति सेक इति अङ्गं भवति तथैव मूर्छ इति यः अस्ति तत्र उपधायां चकारः अतः तत्र तत्रापि कोऽपि गुणकार्यं नास्ति मूर्छ इति तत्र अङ्गं भवति मन्थ यः अस्ति तत्र उपधायां नकारः अतः कोऽपि कार्यं नास्ति केवलं वर्णमेलनं मन्थ इति भवति तथैव वन्द धातुः अस्ति तत्रापि उपधायां नकारः अतः वन्द तथैव सूद् इति अस्ति दीर्घ उकारः अस्ति ह्रस्व नास्ति अतः गुणकार्यं न भवितुं शक्नोति सूद इत्यादीनि अङ्गानि तत्र निष्पन्नानि अपि च तत्र उपधायां दीर्घ ईकार दीर्घ इक् वर्णाः अपि सन्ति चेत् तेषामपि गुणकार्यं न भवति अतः तादृशधातवः अपि शेषाः इत्यनेन तत्र परिगण्यते
बहु सम्यक् वन्दनम् इति पदमस्ति वन्दनम् इति रूपं साधयतु
लुडन्त रूपम् अस्ति अन्न इति आदेशः भवति वन्द धातु योग लुट् कुर्मः चेत् तत्र अनु लुट् प्रत्ययस्य लकारस्य टकारस्य इति संज्ञा भूत्वा यु अवशिष्यते तत्र युवर्णाको इत्यनेन अन्न आदेशः भवति अतः तत्र वन्दयोग अन्न इति भवति चेत् तत्र गुणकार्यं नास्ति ल्युट् गुणानुकूलप्रत्ययः परन्तु अत्र गुणप्रसङ्गः धातौ नास्ति अतः केवलं वर्णमेव वन्दनं वन्दन इति तत्र प्रातिपदिकं सिद्ध्यते नपुंसकलिङ्गे वन्दनम् इति भवति
बहु सम्यक् मूर्तिः इति पदं श्रुतवती वा
मूर्तिः आं
मूर्तिः मूर्तिः इति पदं मूर्च्छधातोः रूपं धातुः अस्ति मूर्च्छधातोः बहूनि कार्याणि भवन्ति अन्ततो गत्वा क्तिन् प्रत्ययान्तरूपम् अस्ति मूर्तिः मन्थनं जानीमः खलु लुडन्तरूपं भवति मन्थनम् इदित् धातुः वा इदित् धातुः अस्ति इति कारणतः इदितोनं धातोः सूत्रेण रूपमायाति वा
मथनम् इति भवति किल किमर्थं चेत् मन्थ इति इदित् धातुः नास्ति किल पूर्वमेव नकारः अन्ते अस्ति इति कारणतः इदित् धातुः नास्ति किल
एकः धातुः इदित् धातुः अस्ति मध्यम् इति इदित् धातुः अस्ति इदित् धातुः अस्ति इति कारणतः इदितोनुं धातोः इति सूत्रेण नुमागमः भूत्वा लौकिकधातुः मन्थ् भवति मन्थ् धातोः ल्युडन्तरूपं मन्थनं मन्थनम् इति रूपं साधु एव
यदि नकारः मध्ये आगच्छति चेत् तत् मथनमेव भवति किल ल्युडन्तरूपं मथनमेव भवति पूर्वमेव नकारः मध्ये आगच्छति चेत् मन्थ् इति धातुः तत्र मथनमेव भवति नकारः मध्ये निष्कासनं भवति किल
न तच्चिन्तनं भिन्नम् अनिदिदां हलोपधाय अख्नीति इति सूत्रं तत्सर्वं भिन्नम् अस्ति किन्तु अत्र तु धातुः मथि अस्ति मथि इति धातुः इदित् धातुः इदित् धातुः अस्ति इति कारणतः प्राकृतिकानि कार्याणि करणीयानि इदितोनं धातोः धात्वादेः शहसः अणोनः इत्यादीनि सूत्राणि कार्यं कर्तुं तत्र प्रत्ययः अनावश्यकः तदर्थमेव प्राकृतिकानि कार्याणि इति वदामः इत्युक्ते प्रकृतौ किञ्चित् परिवर्तनं भवति अत्र नकारः आयाति एव लौकिकधातोः रूपं मन्थ् भवति मन्थ् योगः ल्युट् कुर्मः चेत् मन्थनम् इति रूपमेव भवति इदित् धातुः अस्ति इति कारणतः मन्थनं रूपं साधु एव किन्तु मथनम् इति रूपम् अस्ति वा
अस्ति एव मन्थ् इति धातुतः मन्थ् इति नकारयुक्तं धातुः अपि अस्ति तत् मथनम् इति भवति युडन्तरूपम्
मन्थ इति धातु भुवादि भुवादिगणे एकम् अन्यत् धातुः अस्ति एकमस्ति इदित् धातुः यथा भवती उक्तवती द्वितीयमस्ति तत्र मन्थ अत्र अन्ते तत्र अकारः अनुनासिकः परन्तु तत्र ल्युडन्तरूपं मन्थनम् एव अस्ति तत्र मथनं नास्ति
क्रियादिगणे एकः धातुः अस्ति क्रयादिगणे मन्थ् इति धातुः अस्ति मथ्नाति इति रूपं तत्र सिद्ध्यति मथ्नाति इति रूपं किं चिन्तनमस्ति भगिनी भवती वदतु क्रयादिगणे मन्थ् धातुः अस्ति क्रियादिगणे श्ना इति गणविकरणप्रत्ययः आयाति श्नागणविकरणप्रत्ययः अपि तु सार्वधातुकप्रत्ययः अपि तु सार्वधातुकप्रत्ययः अस्ति इति कारणतः अपि च अयं धातुः इदित् धातुः नास्ति अतः अनिदितां हल उपधाया क्निति इति सूत्रेण तत्र नकारलोपः भूत्वा मथ्नाति इति रूपं सिद्ध्यति तत्र चिन्तनं भिन्नम् अस्ति भवती वदतु
आं भगिनि तत्र यः सूत्रमस्ति अनिदितानां हल उपधायाः क्निति यः अस्ति अत्र श्ना इति नित् सार्वधातुक अपि अतः निद् इव अस्ति अत्र उपधायां भूतस्य यः मूले एव नकारः तस्य लोपः भवति तत्र तत्र भवति, तत्र मथनम् इति भवितुं शक्नोति।
तत्रापि अपित् सार्वधातुकप्रत्ययः श्न इति प्रत्ययः अपित् सार्वधातुकप्रत्ययः अस्ति, अपि च अयं धातुः इदित् नास्ति, अनिदित् धातुः अस्ति इति कारणतः अनिदितां हलोपधायाकनिति इति सूत्रेण लटि प्रसङ्गे मध्नाति इति रूपं सिद्ध्यति। किन्तु क्रियादिगणीयधातोः प्रसङ्गे अपि तत्र ल्युडन्तप्रसङ्गे किं चिन्तनमस्ति, लौकिकधातुः एव मन्ध अस्ति, ल्युट् प्रत्ययः आर्धधातुकः,
आर्धधातुक नास्ति, अतः तत्र सूत्रं कार्यं न कर्तुं शक्यते, मन्थनम् एव भवति।
बहु सम्यक्, मन्थनमेव भवति। क्रियादिगणीयमन्थ धातोः प्रसङ्गे अपि मन्थनम् इति रूपमेव सिद्ध्यति, भुवादिगणीयधातोः प्रसङ्गे अपि मन्थनमेव सिद्ध्यति, किन्तु मथनम् इति रूपम् अस्ति चेत् तत् किं रूपं चिन्तनीयम्।
डेस्ट्राय् इति तत्र अर्थः अस्ति, डेस्ट्राय् नाशनं, मथेव धातुः, मथेव इति धातुः डेस्ट्राय् नाशनम् इति तस्य अर्थः सिद्ध्यति।
पश्यतु महोदय, विलोडने इत्यस्मिन् अर्थे भुवादिगणे मथ इति धातुः अस्ति, लटीरूपं मथति, तत्र धातुः इदित् नास्ति, धातौ नकारः अपि नास्ति, केवलं धातोः रूपमेव मथ अस्ति, तत्र मथनं रूपं साधयितुं शक्नुमः, धातोः रूपमेव मथ अस्ति, मथ् योगः अन मथन।
मथिम् इति धातुः मन्थति इति रूपं सिद्ध्यति, तत्र मन्थति मन्थतः मन्थन्ति इति भवति।
महोदय, तत्र धातुः इदित् धातुः अस्ति इति कारणतः इदितोनु धातोः इति सूत्रेण प्राकृतिकं कार्यं भूत्वा मन्थ इति रूपं सिद्ध्यति, इत्युक्ते प्राकृतिकं कार्यं भवितुं तत्र प्रत्ययः अनावश्यकः, प्रत्ययं विना अपि कार्यं करणीयम्, इत्युक्ते धातुं स्वीकृत्य आदौ अनुबन्धलोपं कुर्मः, पश्चात् प्राकृतिकं कार्यं तत्र अस्ति चेत् तदपि करणीयं, तेन एव तत्र लौकिकधातोः निर्माणं भवति। मथ्यु इति इदित् धातुः अस्ति चेत् नुमागमः भूत्वा मन्थ् भवति, ल्युडन्तरूपं मन्थनं भवति, किन्तु मथनम् इति प्रसङ्गे किं वक्तव्यम्, अन्यः एकः धातुः अस्ति मथ् इति धातुः, तस्य लटीरूपं मथनम् इति भवितुम् अर्हति। भवान् वदतु,
मथ् इति धातुः, मथ् इति धातुतः मथ्योगे ल्युट् इति भवति, तत्र मथनम् इति, मथ्योगे अन इति भवति, मथन इति रूपं सिद्ध्यति।
मथ् इति धातुः कीदृशः, अदुपधधातुः,
अदुपधधातुः तदेव,
अदुपधधातुः अस्ति इति कारणतः ल्युट् इति अर्धधातुकप्रत्ययं निमित्तीकृत्य तत्र किमपि अङ्गकार्यं नास्ति, इत्युक्ते उपधायां ह्रस्वाकारः अस्ति इति कारणतः किमपि अङ्गकार्यं नास्ति, केवलं प्रत्ययं योजयामः मथन इति रूपं तत्र सिद्ध्यति, अदुपधधातुः, तदेव अत्र लिखितं खलु, अदुपधानां प्रसङ्गे ह्रस्वकारस्य किमपि कार्यं नास्ति, ह्रस्वकारः उपधायाम् अस्ति चेत् किमपि अङ्गकार्यं तत्र न भवति, केवलं ह्रस्व इक्वर्णः अस्ति चेदेव गुणकार्यं भवति, ह्रस्व अकारः अस्ति चेत् उपधायां तत्र किमपि अङ्गकार्यं न भवति इति उपरि लिखितमस्ति। तदर्थमेव वदनं, नटनं, पठनम् इत्यादिषु तत्र अङ्गकार्यं किमपि नास्ति, ल्युट् इति प्रत्ययं निमित्तीकृत्य अङ्गकार्यं नास्ति खलु। किन्तु नयनम् इत्यत्र अस्ति, किमर्थम्?
तत्र नी इति धातुः, नी इति अस्ति इति कारणतः तत्र गुणः भवति, प्रथमं गुणः भवति,
इगन्तधातुः अस्ति इति कारणतः गुणकार्यं,
गुणकार्यं भूत्वा नी ने भवति, तदनन्तरं नै भवति, सन्धिकार्येण नै भवति, नै योगे अन इति नयनं भवति।
लिखिति धातुः अस्ति चेत् लेखनम् इति रूपं कथं सिद्ध्यति?
लिखिति धातुतः तत्र ह्रस्व इकवर्णः अस्ति उपधायां, तत्र पुगन्तलघुपदस्य च इति सूत्रेण तत्र गुणः भवति, पुगन्तलघुपदस्य च इति सूत्रेण, तो तत्र लिक् गुणः भूत्वा लेख् भवति, उपधायां स्थितस्य इक्वर्णस्य गुणः भूत्वा लेख भवति लेखयोगे अन इति स्थितौ लेखनम् इति भवति
लिख् धातुः लघु इगुपध धातुः अस्ति इत्युक्ते उपधायां ह्रस्व इकारः अस्ति ल्युट् इति प्रत्ययं निमित्तीकृत्य लिख् इति धातुरूपी अङ्गे गुणकार्यं पुगन्तलघुपधस्य च इति सूत्रेण भवति अतः तत्र लेखनम् इति रूपं भवति पठनं वदनम् इत्यादिषु धातुः अदुपध धातुः अतः उपधायां स्थितस्य अकारस्य विकृतिरूपं न सिध्यति इत्युक्ते ह्रस्वाकारस्य परिवर्तनं न भवति तत्र अङ्गकार्यं नास्ति अदुपधानां प्रसङ्गे अन्तिमं वाक्यं भवान् पठतु
अत्र यः धातूनां विभजनं माताजिना यत् कृतं किमर्थम् अदुपदाः इति सन्ति एतादृशः वर्गीकरणं किमर्थम् इत्युक्ते तत्र चुरादौ कार्यम् अस्ति अदुपदानाम् अन्येषु गणेषु अदुपदानां कार्यं नास्ति परन्तु चुरादौ तत्र कार्यम् अस्ति अतः एतादृशः वर्गीकरणम् आवश्यकम् अपि च कृदन्तप्रक्रिया कृदन्तप्रक्रियायाम् अपि तत्र अदुपदानां कार्यं सम्भवति कुत्रचित् अतः एतादृशः वर्गी यद्यपि तत्र अन्यस्मिन् गणे तत्र भुवादौ विवादौ तत्र अदुपदानां कार्यं नास्ति परन्तु एतादृशः वर्गीकरणं तु करणीयमेव किमर्थं चेत् अदुपदानां चुरादौ अपि च कृदन्तेषु तत्र कार्यं भवति
बहु सम्यक् एकम् उदाहरणं वदतु पठधातुं स्वीकृत्य पाठयति इत्यत्र किं सूत्रं कार्यं करोति
पाठिति धातुः अदुपदधातुः भुवादौ अस्ति परन्तु तत्र यदा हेतुमति च सूत्रेण निच् प्रत्ययः योजयामः सो तत्र कार्यमस्ति अङ्गकार्यमस्ति यद्यपि तत्र गुणप्रसङ्गः नास्ति परन्तु तत्र नीच योजनेन तत्र वृद्धिप्रसङ्गः अस्ति अत् उपधायाम् इति सूत्रेण तत्र ह्रस्वाकारस्य उपधाभूतस्य ह्रस्वाकारस्य तत्र वृद्धिकार्यं भवति पाठ योग ई भवति पाठी इति तत्र नूतनधातुः निष्पद्यते
उत्तमम् पाठयति इति रूपसाधनवेलायाम् अत उपधायाः इति सूत्रं कार्यं करोति अतः अदुपधाः इति अपि वर्गीकरणमपि आवश्यकमस्ति इत्युक्ते पृथक्तया अदुपधानां वर्गीकरणमपि करणीयं वद् धातोः रूपं वादयति णुल् प्रत्ययान्तरूपं वादकः अतः अदुपधाः पृथक्तया स्थापिताः तेषां वर्गीकरणमपि अपेक्षितं पृथक्तया तेषां वर्गीकरणं कृतमस्ति साधु भगिनि अन्तिमं वाक्यं पठित्वा समापयामः महोदय भवान् पठतु
इति वादिगणे विकरणप्रत्ययनिमित्तम् अङ्गकार्यं विशेषतः गुणकार्यम् अन्यानि अङ्गकार्याणि अग्रे वक्ष्यन्ते इत्यादि इति वादिगणे विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यं विशेषतः गुणकार्यं सिद्ध्यति अन्यानि अङ्गकार्याणि अग्रे वक्ष्यन्ते अस्माभिः अन्यानि अङ्गकार्याणि अपि अग्रे गत्वा वक्ष्यन्ते इति कर्मणि प्रयोगः
भुवादिगणे विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं विशेषतः गुणकार्यम् अस्मिन् पाठे उक्तमस्ति नीलं भगिनी भवती वदतु इतोपि किं ज्ञातव्यम्
इत्युक्ते तत्र यः अङ्गनिर्माणं भवति तत्र प्रथमे तत्र सार्वधातुक लकारेषु सार्वधातुक प्रक्रियायां तत्र धातुरूपी अङ्गे एव गुणः भवति भुवादौ अपि च चुरादौ अपि च तनादिगणे सो तत्र अङ्गनिर्माणं कथं भवति इति तस्य विषये अस्मिन् करपत्रे दत्तं वयं तु तत्र भुवादिगणे विषये यः माताजिना वर्गीकरणं कृतं कथं तत्र अङ्गे धातुरूपी अङ्गे गुणः भवति इति तस्य विषये तत्र अत्र अधीतम् अन्यस्मिन् गणे अपि तत्र यद्यपि तत्र अन्यस्मिन् गणे तत्र गुणकार्यं न भवति इत्युक्ते तत्र अदादौ शप् लुक् भवति ज्योत्यादि शप् श्लू भवति दिवादि अपि सार्वधातुप्रत्ययः अस्ति केवलं तत्र चुरादौ अपि गुणः भवति निच् अपि च शप् कारणेन तत् तस्मिन् गणे भवति अपि च तनादिगणे अपि ऊ प्रत्ययनिमित्तीकृत्य धातुरूपी अङ्गे गुणः भवति अन्यस्मिन् गणे तु सार्वधातुक अपित् प्रत्ययः अतः तत्र धातुरूपी अङ्गे गुणः न भवति इति अङ्गनिर्माणं इत्युक्ते गणनि गणन् विकरणप्रत्ययनिमित्तीकृत्य यः अङ्गनिर्माणं भवति तस्य विषये अत्र चिन्तनमस्ति.
बहु सम्यक्. भुवादिगणे अदन्तम् अङ्गं सिद्ध्यति इति स्मर्तव्यं. सूद मन्थ मूर्छ नट वद इत्यादीनि अदन्त अङ्गानि. भुवादिगणे अदन्तम् अङ्गं सिद्ध्यति. येषु गणेषु अदन्तम् अङ्गमस्ति तेषु गणेषु सिद्धतिङ्प्रत्ययानां निर्माणं कथं भवति इति अग्रिमे सप्ताहे पठिष्यामः. तस्मिन् पाठे बहवः नूतनाः विषयाः सन्ति. अपि च अत्र सिष् इति धातुः अस्ति. सिष् धातोः रूपमेव शेषः. सिष् धातुतः घञ् प्रत्ययस्य योजनेन शेषः इति रूपं सिद्ध्यति. सिष् धातुः अपि इदुपधधातुः. उपधायां ह्रस्व इकारः अस्ति. सिष् इत्यत्र पुगन्तलघुपधस्य च इत्यनेन गुणकार्यं भूत्वा शेष् भवति. शेषः इति रूपं भवति. अवशिष्टः धातुः. अवशिष्टाः धातवः. अवशिष्टाः इत्यत्र कः प्रत्ययः अस्ति? सुन्दरमहोदय वदतु.
अवशिष्टाः धातवः. अवशिष्टाः इति अव इति उपसर्गपूर्वक शिष्य धातोः तप्रत्ययस्य योजनेन अवशिष्टः इति रूपं सिद्ध्यति.
तत्र सन्धिकार्यं किम् अस्ति?
तद् अवशिष्टः त इति यस्य टकारः आदेशः भवति तत्र टकारस्य ष्टोः ष्टुनाष्टुः.
केवलं ष्टुनाष्टुः?
ष्टुनाष्टुः सर् ष्टुनाष्टुः इति सूत्रेण टकारस्य स्थाने टकारः आदेशरूपेण भवति. सो अवशिष्टः अव योगे शिष् योगे टः अवशिष्टः इति भवति.
उत्तमं. नरसिंहहेग्डे महोदय भवान् वदतु, अवशिष्टः इति पदस्य रूपसाधनवेलायां किं चिन्तनमस्ति?
महोदयेन उक्तमे अव उपसर्गपूर्वक शिष् धातोः स प्रत्ययः. तत्र पुनाष्टु इत्यनेन तकारस्य स्थाने टकारः भवति अवशिष्ट. तत्र एतद् इडागमपि भवति शिष्ट इति. चिन्तयामि
शिष्टमपि
धातुः इडनुकूलधातुः वा इति द्रष्टव्यम्.
अत्र कित् इति कारणेन कित् प्रत्ययः इति कारणेन गुणः निषिध्यते.
कित् प्रत्ययः अस्ति इति कारणतः गुणनिषेधः भवति. क्ता प्रत्ययः कित् प्रत्ययः, अतः गुणकार्यं न भवति. धातुः इगुपधधातुः चेदपि, अपि च धातुः अनिट् धातुः, इडनुकूलधातुः नास्ति. धातौ एव आनुकूल्यं नास्ति इडागमकार्यार्थम्, अतः इडागमस्य प्रसक्तिः नास्ति. यद्यपि क्ता प्रत्ययः इडनुकूलप्रत्ययः, तत्र धातुः अनिट् धातुः, अतः तत्र शिष्ट इति रूपमेव सिद्ध्यति. शिष्टप्रयोगः, शिष्टप्रयोगः इत्युक्ते किम्?
पूर्वमेव कृतः प्रयोगः इति शिष्टप्रयोगः इति पूर्वमेव एकवारं कृतः प्रयोगः इति अर्थः सिद्ध्यते.
नरसिंहहेग्डे महोदय भवान् वदतु, शिष्टप्रयोगम् अनुसृत्य इति वदामश्चेत् कः अर्थः?
एक्सेप्टेड् प्रयोगः इति. इट् इस् एक्सेप्टेड् बै एव्रिवन्. शिष्ट इति अहं चिन्तयामि. सम्यक् न जानामि.
पूर्वमेव कृतः प्रयोगः,
पूर्वजैः वैयाकरणैः कृतः
इति कारणतः अधुनापि तत् प्रयोगः साधु एव इति. पार्श्वप्रयोगः इति अपि अस्ति. ऋषीणां कृतः प्रयोगः आर्षप्रयोगः, तत्र अधुना न प्रयोगं कर्तुं शक्यते इत्यपि अस्ति किल.
आर्षप्रयोगः भिन्नः, शिष्टप्रयोगः भिन्नः.
गतकक्षायां भवति एकम् उदाहरणं सत्यमेव जयति.
सत्यमेव जयते इति तत् प्रयोगः आर्षप्रयोगः.
गीतायां बहूनि वाक्यानि तादृशानि सन्ति. शुद्धिकौमुदी पुस्तकं पठामश्चेत् तस्मिन् पुस्तके बहवः आर्षप्रयोगाः तस्मिन् पुस्तके दत्ताः. गीतायां बहुषु स्थलेषु आर्षप्रयोगाः दृश्यन्ते. आत्मनेपदी धातुः अस्ति चेदपि परस्मपदी इव तस्य प्रयोगः कृतः. केषुचित् स्थलेषु आर्षप्रयोगाः सन्ति. एकवारं पठन्तु शुद्धिकौमुदी पुस्तकं. पुस्तकस्य अन्तिमभागे आर्षप्रयोगाः दत्ताः. अहं चिन्तयामि जनार्दन हेगडे महोदयेन लिखितम् इति भाति.
तदेव. अन्य अपि एकं पुस्तकम् अस्ति, कर्मणि प्रयोगः इति, कर्तरि कर्मणि कर्मणि प्रयोग प्रयोगविस्तारः इति एकं पुस्तकम् अस्ति, तदपि बहु उपयोगी उपयोगं पुस्तकम् अस्ति.
प्रयोगविस्तरः इति कथनेन तस्मिन् पुस्तके कर्मणि प्रयोगः कर्तरिप्रयोगः उच्यते. नीलं भगिनी भवती वदतु, लिख् धातुः तुदादिगणे अस्ति, तुदादिगणे लिख् धातोः लटीरूपं लिखति, किन्तु ल्युडन्तरूपं लेखनं, तुमुन्नन्तं रूपं लेखितुं किमर्थं तथा? लटीरूपं लिखति किन्तु ल्युडन्तमस्ति लेखनमस्ति, तुमुन्नन्तमस्ति लेखितुं, तत्र गुणकार्यं दृश्यते, किमर्थं तथा?
तुदादिगणे महर्षिणा तत्र तुदादि लिख् इति धातु तुदादिगणे स्थापितः, तत्र श इति विकरणप्रत्ययः अस्ति, सार्वधातुक अपि अस्ति, अतः तत्र श प्रत्ययनिमित्तीकृत्य गुणकार्यं निषेधः, अतः लिखति एव भवति. परन्तु यत्र यत्र आर्धधातुकप्रत्ययः अस्ति अत अपि च अर्धधातुकप्रत्ययः कित् गित् नीत् नास्ति, तत्र तु गुणः भवति. परन्तु तिङन्तरूपेषु रूपेषु तत्र सार्वधातुकप्रक्रियायां तत्र गुणः न भवति.
सार्वधातुकप्रक्रियायां गणचिन्तनमस्ति,
वदति च तत्र कर्तरि शप् अपि च तुदादिभ्यः शः इति सूत्रद्वारा तत्र विकरणप्रत्ययः मध्ये आयाति, गणविकरणप्रत्ययः मध्ये आयाति सार्वधातुकप्रक्रियायाम्, अतः तत्र गुणः न भवति.
अतः लिखति इति रूपमेव भवति. इत्युक्ते शाप्रत्ययः सार्वधातुक अपित् प्रत्ययः अस्ति, सार्वधातुक अपित् प्रत्ययः नित्वत् प्रवर्तते, अतः क्निति च इति सूत्रेण गुणनिषेधः भवति, अतः सार्वधातुकप्रक्रियायां लिखति इति लटीरूपं सिद्ध्यति, लोट् रूपमपि लिखतु इति एव भवति. किन्तु लेखितुं लेखनम् इत्यत्र आर्धधातुकसामान्यप्रत्ययः, वदतु.
तत्र अर्धधातुकप्रक्रिया भवति, किमर्थं चेत् तत्र कर्तरि शब् सूत्रस्य प्रसक्तिः नास्ति, अतः अर्धधातुकप्रक्रिया एव अस्ति, अतः तत्र गुणः भवति. सो यत्र गुणः सम्भवति तत्र करणीयं, यत्र इत्युक्ते लटि लोटि लङ्गि विधिलिङ्गि तत्र लिख् एव तिष्ठति, तत्र लेखनं भवति.
लिखित्वा इत्यत्र किमस्ति?
लिखिति धातु षट् अस्ति, अतः तत्र इडागमः अपि भवति त्वा प्रत्ययस्य कारणेन, वलादि अस्ति अतः तत्र इडागमः भवति, अतः लिखित्वा इति भवति, खित्वा भवति तत्र
लिखित्वा इति भवति. अहं चिन्तयामि एकम् अन्यत् सूत्रं तत्र आयाति इति कारणतः लिखित्वा रूपमपि अस्ति, लेखित्वा रूपमपि अस्ति, किमर्थं तथा? एकं विशिष्टं सूत्रमस्ति तदर्थं, लिख् धातोः प्रसङ्गे एकं विशिष्टं सूत्रमस्ति इति कारणतः विकल्पेन रूपद्वयं सिद्ध्यति, लिखित्वा रूपं साधु, किमर्थं चेत् क्त्वा प्रत्ययः कित् खलु, अतः गुणकार्यं निषिध्यते, क्त्वा इत्यत्र कित्वात् गुणनिषेधः भवति, किन्तु तत्र एकेन विशिष्टसूत्रेण लेखित्वा रूपमपि अस्ति. अस्तु, अग्रिमे सप्ताहे सिद्धतिङ्प्रत्ययानां निर्माणम् इति विषयः आरप्स्यते, तस्मिन् पाठे नूतनाः विषयाः आयास्यन्ति. नरेश् महोदय, भवान् किम् अवगतवान् वदतु.
अत्र तु अङ्गकार्यं अवगमनमस्ति, अङ्गकार्यं प्रथम तु अङ्गस्य अन्ते इक् अस्ति चेत् तत्र अङ्गकार्यं भवति, अपि च उपधायां ह्रस्व इक् अस्ति चेत् तत्र पुगन्तलघुपदस्य च सूत्रेण अङ्गकार्यं भवति, गुणकार्यं भवति, तदस्ति.
सर्वे अजन्तधातवः नवसु गणेषु स्थापिताः, हलन्तधातवः पञ्चविभागेषु स्थापिताः, अदुपधाः, इदुपधाः, उदुपधाः, रुदुपधाः, अवशिष्टाः. अस्तु, वयं सम्यक् चिन्तनं कृतवन्तः, इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः.